चित्रं पञ्चविंशतिः पवित्रात्मस्य आगमनं प्रभु ईश्वरस्य स्वर्गेषु प्रगच्छन्ति पूर्वं तस्य ईश्वरस्य तस्य शिष्याणां समीपे वाग्दानं करोति तस्य सहायार्थं सः पवित्रात्मानाम् आगमनं सिद्धयन्ति प्रभु ईशुष्य स्वर्गस्य गच्छन्ति दशदिनेषु शेषं तस्य सम्पूर्णशिष्याणाम् एकस्थलेन तिष्ठति त्वमेवम् इदं चित्रेषु पश्यन्ति साध्यम् इदं विधानम् एकं पर्यायम् एकः बृहत्तरवायुस्वरेषु एकं श्रूयन्ते यदा विधानं सर्वं जिह्वरूपेण तस्य शिष्याणां प्राप्ति स्म पवित्रात्मा आगच्छति च सर्वं सर्वान्तरेषु सम्पूर्णं भवति इदं दिनेषु सर्वविश्वान्तराणां यरुशलेमस्य प्रजानां एकरूपेण सम्मिलन्तः शिष्याणां तस्य भाषेण प्रवचनं भाषितं शक्ति तेषु सम्प्राप्तम् तेषु इदं विधानेषु ईश्वरस्य अद्भुतकार्यं प्रवचनेषु निमग्नेषु सन्ति त्रीणि सहस्राणि प्रजानाम् इदं दिनेषु ईशस्यं विश्वसयन्ति जो सत्यं सत्यं ईशुष्य अनुसरमार्गेण अनुसरति स्म तत् पवित्रात्मा शक्तिमान् रूपेण तस्य रूपं प्राप्ति स्म तेषु इदं विधानं ईशस्य आज्ञानां पालयन्ति स्म च अन्यजनानेषु ईशस्य पन्थः प्रकटितवान्।